इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्याः वार्ताः। निर्वाचनायोगेन उत्तरप्रदेशे विशेष पुनरीक्षण प्रक्रियायाः अनन्तरम् अद्य राज्यस्य प्रारूप मतदातृसूचिः प्रकाशिता। अस्यां सूच्यां 55,00,000+ मतदातारः सम्मिलिताः सन्ति। शिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन अद्य देशस्य 5 शास्त्रीयभाषाणां 55 दुर्लभाः बहुमूल्याः च साहित्यकृतयः लोकार्पिताः। केन्द्रीय माध्यमिक शिक्षा परिषदा अद्य परीक्षा सम्बद्ध कष्टं निवारयितुं छात्राणां कृते मनोसामाजिक परामर्श समर्थनम् आरब्धम्। देशस्य अतिशयभागेषु सघनकुज्झटिका कारणेन बहुत्र रेलसेवाः दुष्प्रभाविताः। दिल्ली संभागस्य 70 रेलयानानि विलम्बेन प्रचलन्ति। अपि च भारतस्य लक्ष्यसेनः मलेशियायाः कुआलालम्पुर मलेशिया ओपन सुपर 750 इति बैडमिंटन स्पर्धा मालिकायां पुरुषैकल वर्गस्य द्वितीय चक्रे प्रविष्टः। अथ वार्ताः विस्तरेण। निर्वाचनायोगेन उत्तरप्रदेशे विशेष पुनरीक्षण प्रक्रियायाः अनन्तरम् अद्य राज्यस्य प्रारूप मतदातृसूचिः प्रकाशिता। इतः पूर्वं प्रारूप मतदातृसूचेः प्रकाशनं विगते दिसंबर मासे 31 दिनांके निर्धारितमासीत्। उत्तरप्रदेशस्य मुख्य निर्वाचनाधिकारी नवदीप रिणवा अवदत् यत् अस्यां सूच्यां 55,00,000+ मतदातारः सम्मिलिताः सन्ति।
इलेक्ट्रॉन रोल को हमने पब्लिश किया है और इसका नेट रिजल्ट ये निकला कि जो 15,44,30,092 मतदाता थे उनमें से जिनके गणना प्रपत्र जो रह रहे हैं उत्तर प्रदेश में जीवित हैं या तो स्वयं ने हस्ताक्षर करके दिया या उनके परिवार के किसी वयस्क सदस्य ने हस्ताक्षर करके दिया वो गणना पत्र जो हमारे पास आए वो थे 12,55,56,025।
अमुना उक्तं यत् आपत्तिं प्रस्तोतुं फरवरी मासस्य 6 दिवसः अन्तिमावधिः वर्तते। उत्तरप्रदेशे मार्च मासस्य 6 दिनांके परिष्कृता संशोधिता अन्तिमा च मतदातृसूचिः प्रकाशयिष्यते। ततः परं मतदातृसूच्यां कथमपि परिष्कारं नैव करिष्यते। शिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन अद्य देशस्य 5 शास्त्रीयभाषाणां 55 दुर्लभाः बहुमूल्याः च साहित्यकृतयः लोकार्पिताः। एतासु तमिल तेलुगु मलयालम कन्नड ओडिया भाषाः च सन्ति। पुस्तकानि केन्द्रीय भारतीय भाषा समित्या प्रकाशितानि सन्ति। नवदिल्ल्यां वार्ताहरैः सह वार्तालापं कुर्वन् श्रीप्रधानः अवदत् यत् भारतीय भाषाः राष्ट्रं समाजं च संयोजयन्ति ऐक्यं च कुर्वन्ति। सः अवदत् यत् सर्वाः भारतीय भाषाः राष्ट्रभाषाः इव इति प्रधानमन्त्रिणा नरेन्द्रमोदिना अवधानं दत्तम्। श्रीप्रधानः अधोरेखितवान् यत् गतवर्षे सर्वकारेण 5 अन्याभिः भारतीयभाषाभिः अपि प्राचीनमूलकारणाच्च शास्त्रीयभाषारूपेण मान्यता प्रदत्ता। एतासु मराठी तेलुगु बांग्ला असमिया पाली प्राकृत च सन्ति।
हमारे पास 6 क्लासिकल लैंग्वेज होती थी, संस्कृत तमिल तेलुगु मलयालम कन्नड़ और उड़िया। बीते साल सरकार ने और 5 भाषाओं को सांस्कृतिक भाषा क्लासिकल लैंग्वेज का मान्यता दिया है, मराठी बंगाली ओहमिया और दो प्राचीन भाषा पाली और प्राकृत।
मद्रासोच्च न्यायालयस्य मदुरई खंडपीठेन तिरुप्पारन कुंड्रम पर्वत स्थिते दीपथून स्तंभे दीप प्रज्वालनस्य अनुमति प्रदानाय एकल न्यायाधीशस्य आदेशः यथावत् प्रवर्तितः। न्यायमूर्तेः जी जयचन्द्रनस्य न्यायमूर्तेः के रामकृष्णनस्य च खण्डपीठेन उक्तं यत् यस्मिन् स्थाने दीपथून नामकः प्रस्तरस्तम्भो वर्तते तत्र भगवतः सुब्रह्मण्यं स्वामिनः मन्दिरमस्ति। पीठेन प्रोक्तं यत् भारतीय पुरातत्व सर्वेक्षणस्य परामर्शस्य अनन्तरं तत्र दीपं प्रज्वालयिष्यते। न्यायालयेन उक्तं यत् तत्र उपस्थातुं जनानां संख्यायाः निर्धारणं कर्तुं शक्यते। याचिकाकर्ता निरञ्जन एस कुमारः अवदत् यत् तिरुप्पारन कुण्ड्रम पर्वते दीपप्रज्वालनम् अत्यावश्यकं वर्तते। केन्द्रीय माध्यमिक शिक्षा परिषदा CBSE इत्यनेन अद्य परीक्षा सम्बद्ध कष्टं निवारणाय छात्राणां कृते मनोसामाजिक परामर्श समर्थनम् आरब्धम्। दशमीतः द्वादशी कक्षायाः परीक्षार्थीनां कृते निःशुल्क मनोसामाजिक परामर्श सेवायाः प्रथमः चरणः अस्मिन् वर्षे जून मासस्य एकदिनाङ्कपर्यन्तं प्रचलिष्यति। अस्य उपक्रमस्य उद्देश्यं परीक्षा सम्बद्ध कष्टस्य भावनात्मक स्वास्थ्यस्य च निवारणम् अस्ति, येन छात्राः आत्मविश्वासेन सन्तुलनेन मानसिक स्पष्टतया च फरवरी मासस्य 17 दिनाङ्कादारभ्यमाणेषु परीक्षायां सम्मिलितुं समर्थाः भविष्यन्ति। छात्राः टोल फ्री संख्यायां 1800111800 इत्यत्र सम्पर्कं कर्तुं शक्नुवन्ति, तथा च इंटरैक्टिव वॉइस रिस्पॉन्स सिस्टम इत्यस्य माध्यमेन हिंदी आंग्ल भाषयोः 24 होरासु सहयोगं प्राप्तुं शक्नुवन्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमंत्री नरेंद्र मोदी आंध्र प्रदेशस्य विशाख रिफाइनरी इत्यत्र हिंदुस्तान पेट्रोलियम कॉर्पोरेशन लिमिटेड इत्यस्य अवशिष्ट उन्नयन सौकर्यस्य सफलतया आरंभस्य प्रशंसाम् अकरोत्। सामाजिके अंतरजालीये पटले पेट्रोलियम प्राकृतिक ईंधन मंत्रिणः हरदीप सिंह पुरी वर्यस्य संदेशं विनिमयी कुर्वन् प्रधानमंत्री अवदत् यत् एषा अत्याधुनिक सुविधा आत्मनिर्भर भारतस्य दृष्ट्या ऊर्जा स्वातन्त्र्यं वर्धयितुं राष्ट्रस्य प्रयत्नेषु गतिं जनयिष्यति। उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन प्रतिपादितं यत् 25-2000 इत्यस्य विकसित भारत जी रामजी अधिनियमः देशस्य ग्रामीणाभिवृद्धि परिवेशे ऐतिहासिकं विकसित भारतस्य आधारं च भविष्यति। लोकभवने 26-2000 प्रथम मंत्रिमंडलीय सभायाः अनन्तरं विशेष वार्ताहर सम्मेलनं संबोधयन् लखनऊ नगरे योगी आदित्यनाथः केंद्र सर्वकारस्य निर्णयस्य प्रशंसाम् अकरोत्, तथा च उक्तवान् यत् अयं पारदर्शिक प्रक्रियां सुनिश्चेतुं वृत्त्यावसरान् निर्मातुं प्रत्याभूतिं प्रदातुं ग्रामीण क्षेत्रेषु स्थायी सम्पत्तिं निर्मातुं च महत्वपूर्णः अधिनियमः अस्ति, येन ग्रामीण आधारभूत संरचनाः वर्धते। बांग्लादेशस्य नरसिंहगढ़ी नगरे अज्ञातैः आक्रमणकारिभिः तीक्ष्ण शस्त्र प्रहारेण उपस्करादि द्रव्य आपणस्य स्वामी 40-वर्षीयः हिंदू पुरुषः मारितः। नरसिंहगढ़ी मण्डले उपस्कर व्यापारिणः मोनी चक्रवर्ती इत्यस्य हत्यया सम्पूर्णे बांग्लादेशे भयं क्रोधं च वर्धितमस्ति। गतसप्ताहेषु हिंदू समुदायस्य जनानां हिंसा चिन्तास्पद श्रृंखलायां तस्य मृत्युः अभवत्। मोनी इत्यस्य हत्या अल्पे काले एव चतुर्थम् एतादृशं प्रकरणमस्ति, येन बांग्लादेशे सार्वजनिक सुरक्षायाः अल्पसंख्यक संरक्षणस्य विधि व्यवस्थायाः च स्थित्याः विषये गभीरा चिन्ता प्रकटिता। बांग्लादेशस्य आरक्षानुसारं मोनी चक्रवर्ती ह्यः अपराह्ने 11 वादने पलाश उपमण्डलस्य चार सिन्दूर बजार इत्यत्र आक्रमणे मारितः। देशस्य अतिशय भागेषु सघन कुज्झटिका कारणेन बहुत्र रेलसेवा दुष्प्रभाविता। रेलविभागस्य अनुसारं दिल्ली संभागस्य 70 रेलयानानि निहाराच्छादनेन स्वल्पदृश्यता कारणेन च विलम्बेन प्रयान्ति। यात्रिणः अपि सञ्चेतिताः यत् रेलस्थानकं प्रति प्रस्थानात् पूर्वं रेलयानानां प्रचलन स्थितिम् अवगन्तुम् इति। ऋतुविभागेन अद्य मध्यप्रदेशे बिहारे च सघन कुज्झटिकायाः ऑरेंज अलर्ट इति नारंगवर्णीया संचेतना प्रसारिता अस्ति। ऋतुविभागेन उक्तं यत् आगामिनि 2-3 दिनेषु दिल्ल्यां हरियाणायां चंडीगढ़े पंजाबे हिमाचल प्रदेशे बिहारे छत्तीसगढ़े ओडिशायां राजस्थाने हिमालये पश्चिम बंगाले देशस्य पूर्वोत्तर भागे अपि द्रष्टुं शक्यते। भारतस्य लक्ष्यसेन मलेशियायाः कुआलालम्पुरे मलेशिया ओपन सुपर 750 इति बैडमिंटन स्पर्धा मालिकायां सिंगापुरस्य जिया हेंग जेसन तेह इत्यनेन पराजित्य पुरुषैकलवर्गे द्वितीयचक्रे प्रविष्टः इति वार्ताः।